ॐ अथ द्वादशोऽध्यायः ध्यानम्। ॐ विद्युद्याम समप्रभां मृगपति स्कन्दस्थितां भीषणां कन्याभिकरवालकेटविलसत् ताभिरासेवितां हस्तैश्चक्रगदासिकेटविशिखां चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे। ॐ देव्यौ वाच एभिस्तवैश्च मां नित्यं तोष्यते यसमाहित तस्याहं सकलां बाधां नाशयिष्याम संशयं मधुकैटवनासं च महिषासुरघातनं कीर्तयिष्यन्ति ये तद्वत् वदं शुम्भनिशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः शोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमं न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्थान चापद भविष्यति न दारिद्र्यं न चैवेष्टवियोजनं शत्रुतो न भयं तस्य दस्युतो वा न राजतः न शस्त्रानलतो योद्धात् कदाचित् सम्भविष्यति तस्मान्ममेतद्माहात्म्यं पठितव्यं समाहितै श्रोतव्यं च सदा भक्त्या परं स्त्वन्ययनं हि तत् उपसर्गानशेषांस्तु महामारी समुद्भवान् तथा त्रिविधमुत्पातं माहात्म्यं समयेन्मम अत्रैतत् पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्षामि सान्निध्यं तत्र मे स्थितं बलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे सर्वं ममैतच्चरितम् उच्चार्य श्राव्यमेव च जानतामजानता वापि बलिपूजां तथा कृतां प्रतिच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतं शरत्काले महापूजा क्रियते या च वार्षिकी तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्ति समन्वित सर्वा बाधा विनिर्मुक्तो धन धान्य सुतान्वित मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पतय शुभा पराक्रमं च युद्धेषु जायते निर्भयः पुमान् रिपव संशयक्रान्ति कल्याणं चोपपद्यते नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वतां शान्तिकर्मणि सर्वत्र तथा दुःस्वप्रदर्शने गृहपीडासु चोग्रासु माहात्म्यं शृणुयान् मम उपसर्गासमं यान्ति गृहपीडासु दुःस्वप्नं च नभिर्दृष्टं सुस्वप्नम् उपजायते बालग्रहाभिभूतानां बालानां शान्तिकारकं सन्धातभेदे च नृणां मैत्रीकरणमुत्तमं दुर्वृत्तानामशेषाणां बलहानिकरं परं रक्षोभूतपिशाचानां पठनादेव नाशनं सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकं पशुपुष्पार्धधूपैश्च गन्धदीपैस्तथोत्तमे विप्राणां भोजनै होमे भोक्षणीयर्हर्निशम् अन्यैश्च विविधैर्भोगै प्रसादैवत्सरेण या प्रीतिर्मे क्रियते सास्मिन् चरिते श्रुते श्रुतं हरति पापानि तथारोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्म तस्मिंच्युते वैरी कृतं भयं पुंसां न जायते युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृता ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिं अरण्ये प्रान्तरे वापि दावाग्नि परिवारित दशुभिर्वावृत शून्य ग्रहीतो वापि शत्रुभि सिंह व्याघ्रानुयातो वा वने वा वनहस्तभि राज्ञा क्रुद्धेन चाग्नप्तो वद्यो बन्धगतोऽपि वा आदुर्णितो वा तेन स्थितपोते महार्णवे पतस्सु चापि शस्त्रेषु संग्रामे वृषदारुणे सर्वा बाधासु घोरासु वेदनाभिर्दितोऽपि वा स्मरन् ममैतच्चरितं नरो मुच्येत संकटात् मम प्रभावा सिंहाद्या दस्यवो वैरिणस्तथा दुरादेव पलायन्ते स्मरतच्चरितं मम उवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तरधीयत तेऽपि देवा निरातङ्का स्वाधिकारान् यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनिहतारय दैत्याश्च देव्या निहते शुम्भे दैवरिपो युधि जगद्विद्वंसिनी तस्मिन् महोग्रे तुलविक्रमे निशुम्भे च महावीर्ये शेषा पातालमाययु एवं भगवती दे सा नित्यापि पुनः पुनः सम्भूय कुरुते भूप जगत परिपालनं तैतन्मोयते विश्वं सैव विश्वं प्रसूयते सायाचिता च विज्ञानं तुष्टारुद्धिं प्रयच्छति अं तैतत्सकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातनी भवत्काले नृणां सैव लक्ष्मीर्वृद्धिप्रदाग्रहे सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते स्तुता सम्पूजिता पुष्पैः धूपगन्धादिभिः स्थिता ददाति वित्रं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्मे फलस्तुतिर्नाम द्वादशोऽध्याय हरिः ॐ।